ओम नमो भगवते वासुदेवाय। अथ सप्तविंशोऽध्यायः। उद्धव उवाच, क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो, यस्मात् त्वां ये यथार्चन्ति सात्वताः सात्वतर्षभ। एतद्वदन्ति मुनयो मुहुर्निःश्रेयसं नृणाम्। नारदो भगवान् व्यास आचार्योऽङ्गिरसः सुतः, निःसृतं ते मुखाम्भोजात् यदाह भगवानजः। पुत्रेभ्यो भृगुमुख्येभ्यो देव्यै च भगवान् भवः। एतद्वै सर्ववर्णानामाश्रमाणां च सम्मतम्, श्रेयसामुत्तमम् मन्ये स्त्रीशूद्राणां च मानद। एतत्कमलपत्राक्षकर्मबन्धविमोचनम् भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर। श्रीभगवानुवाच, नयन्तोऽनन्तपारस्य कर्मकाण्डस्य चोद्धव, संक्षिप्तं वर्णयिष्यामि यथावदनुपूर्वशः। वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः, त्रयाणामीप्सि तेनैव विधिना मां समर्चयेत्। यदा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः, यथा यजेत मां भक्त्या श्रद्धया तन्निबोध मे। अर्जायां स्थण्डिलेग्नौ वा सूर्ये वाप्सुहृति द्विजे, द्रव्येण भक्तियुक्तोऽर्चेत् स्वगुरुं माम मायया। पूर्वं स्नानं प्रकुर्वीत धौतदन्तोऽङ्गशुद्धये, उभयैरपि च स्नानं मन्त्रैर्मृद्ग्रहणादिना। सन्ध्योपास्यादिकर्माणि वेदेन चोदितानि मे, पूजां तैः कल्पयेत् सम्यक् सङ्कल्पः कर्म पावनी। शैली दारुमयी लौही लेप्या लेख्या च सैकती, मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता। चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम्, उद्वासा वाहनेन स्तः स्थिरायामुद्धवार्जने, अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद्वयम्। स्नपनं त्वविलेप्यायामन्यत्र परिमार्जनम्, द्रव्यैः प्रसिद्धैर्मद्यागः प्रतिमादिष्वमायिनः। भक्तस्य च यथा लब्धैर्हृदि भावेन चैव हि, स्नानालङ्करणं प्रेष्ठमर्जायामेव तूद्धव। स्थण्डिले तत्त्वविन्यासो वन्नावाज्यप्लुतं हविः, सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः। श्रद्धयोपहरितं प्रेष्ठं भक्तेन मम वार्यपि, भूर्यप्यभक्तोपहरितं न मे दोषाय कल्पते। गन्धोधूपः सुमनसो दीपोन्नाद्यं च किं पुनः, शुचिसंभृतसंभारः प्राग्दर्भैः कल्पितासनः। आसीनः प्रागुदक् वार्चे दर्चायामस सम्मुखः, कृतन्यासः कृतन्यासां मदर्चां पाणिनामृजेत्। कलशं प्रोक्षणीयं च यथावदुपसाधयेत्, तदद्भिर्देव यजनं द्रव्याणि आत्मानमेव च। प्रोक्ष्यपात्राणि त्रीणि अद्भिः तैस्तैर्द्रव्यैश्च साधयेत्। पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि दैशिकः, हृदा शीर्ष्णाथशिखया गायत्र्या चाभिमन्त्रयेत्। पिण्डे वायुवग्निसं शुद्धे हृत्पद्मस्थां परां मम, अण्वीं जीवकलां ध्यायेन्नादान्ते सिद्धभाविताम्। तयात्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः, आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत्। पाद्योपस्पर्शार्हणादीनुपचारान् प्रकल्पयेत्। धर्मादिभिश्च नवभिः कल्पयित्वा सनं मम पद्ममष्टदलं तत्र कर्णिका केसरोज्ज्वलम्। उभाभ्यां वेदतन्त्राभ्यां मह्यं तु भयसिद्धये, सुदर्शनं पाञ्चजन्यं गदाशी सुधनुर्हलान्, मुसलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत्। नन्दं सुनन्दं गरुडं प्रचण्डं चण्डमेव च, महाबलं बलं चैव कुमुदं कुमुदे क्षणम्। दुर्गां विनायकं व्यासं विश्वक्सेनं गुरून् सुरान्, स्वे स्वे स्थाने त्वभिमुखान् पूजयेत् प्रोक्षणादिभिः। चन्दनोषीरकर्पूरकुङ्कुमा गुरुवासितैः सलिलैः स्नापयेन्मन्त्रैर्नित्यदा विभवे सति। स्वर्णघर्मानुवाकेन महापुरुषविद्यया, कौरुषेणापि सूक्तेन सामभिराजनादिभिः, वस्त्रोपवीताभरणपत्रस्रग्गन्धलेपनैः अलङ्कुर्वीत स प्रेम मद्भक्तो मां यथोचितम्। पाद्यमाचमनीयं च गन्धं सुमनसोक्षतान्, धूपदीपोपहार्याणि दद्यान्मे श्रद्धयार्चकः। गुडपायससर्पींसि सस्कुल्यापूपमोदकान् संयावदति सूपांश्च नैवेद्यं सति कल्पयेत्। अभ्यङ्गोन्मर्दनादर्शदन्तधावाभिषेचनम् अन्नाद्यगीतनृत्यादि पर्वणि स्युरुतान्वहम्। विधिना विहिते कुंडे मेखला गर्तवेदिभिः अग्निमाधाय परितः समूहे पाणिनोदितम् परिस्तीर्याथ पर्युक्षेद अन्वाधाय यथा विधि प्रोक्षण्यासाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेतमाम् तप्त जाम्बूनद प्रख्यम् शङ्खचक्र गदाम्बुजैः लसच्चतुर्भुजम् शान्तम् पद्मकिञ्जल्कवाससम् स्फुरत् किरीट कटक कटिसूत्र वराङ्गदम् श्रीवत्स वक्षसम् भ्राजत् कौस्तुभम् वनमालिनम् ध्यायन्नभ्यर्च्य दारूणि हविषाभिघृतानि च प्रास्याज्य भागावाघारौ दत्त्वा चाज्य प्लुतम् हविः जुहुयान्मूलमन्त्रेण षोडशर्चावधानतः धर्मादिभ्यो यथा न्यायम् मन्त्रैः स्विष्टकृतम् बुधः अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिम् हरेत् मूलमन्त्रम् जपेद् ब्रह्म स्मरन्नारायणात्मकम् दत्त्वा चमनमुच्छेषम् विश्वक्सेनाय कल्पयेत् मुखवासम् सुरभिमत् ताम्बूलाद्यमथार्हयेत् उपगायन् गृणन्नृत्यन् कर्माण्यभिनयन् मम मत्कथा श्रावयन् शृण्वन् मुहूर्तम् क्षणिको भवेत् स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि स्तुत्वा प्रसीद भगवन्निति वन्दे तदण्डवत् शिरो मत्पादयोः कृत्वा बाहुभ्याम् च परस्परम् प्रपन्नम् पाहि मामीश भीतम् मृत्युग्रहार्णवात् इति शेषाम् मया दत्ताम् शिरस्याधाय सादरम् उद्वासयेच्चेदुद्वास्यम् ज्योतिर्ज्योतिषि तत्पुनः अर्चादिषु यदा यत्र श्रद्धा माम् तत्र चार्चयेत् सर्वभूतेष्वात्मनि च सर्वात्माहमवस्थितः एवम् क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः अर्चन्नुभयतः सिद्धिम् मत्तो विन्दत्यभीप्सिताम् मदर्चाम् सम्प्रतिष्ठाप्य मन्दिरम् कारये दृढम् पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान् पूजादीनाम् प्रवाहार्थम् महापर्वस्वथान्वहम् क्षेत्रापणपुरग्रामान् दत्त्वा मत्सार्षितामियात् प्रतिष्ठया सार्वभौमम् सद्मना भुवनत्रयम् पूजादिना ब्रह्मलोकम् त्रिभिर्मत्साम्यतामियात् मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति भक्तियोगम् स लभते एवम् यः पूजयेत माम् यः स्वदत्ताम् परैर्दत्ताम् हरेत सुरविप्रयोः वृत्तिम् स जायते विड्भुग्वर्षाणामयुतायुतम् कर्तुश्च सारथेर्हेतोरनुमोदितुरेव च कर्मणाम् भागिनः प्रेत्य भूयो भूयसि तत्फलम् ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायामेकादशस्कन्धे सप्तविंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।